नमः सर्वज्ञाय एवं मया श्रुतम् एकस्मिन् समये भगवान् नाज गृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसङ्घेन सार्द्रं महता च बोधिसत्वसङ्घेन तेन खलु समयेन भगवान् गम्भीरावसम्बोधनाम समाधिं समापन्नः तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्वो महासत्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाण एवं व्यवलोकयति स्म पञ्चस्कन्धास्तांश्च स्वभावाशून्यं व्यवलोकयति अथ आयुष्मान् छारिपुत्रो बुद्धानुभावेन आर्य अवलोकितेश्वरं बोधिसत्वम् एतद्दवीच्छद यः कश्चित् कुलपुत्रो गम्भीरायां प्रज्ञापारमितायां चर्यां चतुःकामकथं शिक्षितव्यः एवम् उक्त आर्यावलोकितेश्वरो बोधिसत्वो महासत्व आयुष्मन्तं शारिपुत्र मेतद् अवोचत यः कश्चित् क्षारिपुत्रः कुलपुत्रो वा कुलदुहिता वा गम्भीरायां प्रज्ञापारमितायां चर्यां चतुर्कामस्तेनैव व्यवलोकयिष्यतव्यम् पञ्चस्कन्धास्तांश्च स्वभावान्यून्यान् समनुपपश्यति स्म रूपं शून्यतां शून्यतैव रूपं रूपान्न पृथक् शून्यतां शून्यतयान् न पृथग्रूपं यद्रूपं सा शून्यतां या शून्यता तद्रूपम् एवं वेदना संज्ञा संस्कार विज्ञानानि च शून्यता एवं शारिपुत्र सर्वधर्मा शून्यता लक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनुना असम्पूर्णा तस्मान्तर्ये शारिपुत्र शून्यतया न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपम् न शब्दो न गन्धी न रसी न स्प्रष्टव्यं न धर्माः न चक्षुर्धातुर्यवन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः न विद्या नाविद्या न क्षयो यावन्नः जरामरणं न जरामरणक्षयाः न दुःख समुदय निरोधमागाः न ज्ञानं न प्राप्तिर्न प्राप्तिः तस्माचारिपुत्र अप्राप्तित्वेन बोधिसत्वानां प्रज्ञापारिमितामिश्रित्या विहरति चित्रावरणा चित्तावरणनास्ति त्वादत्रस्त विपर्यासातिक्रांत निष्ट निर्वाण त्र्यध्वव्यस्थिता सर्वबुद्धा प्रज्ञापारमितामाश्रिता अनुत्तरा सम्यक् संबोधिता बोधिमभिसंबुद्धा तस्माज्ञातव्यः प्रज्ञापारमिता महामंत्रो महाविद्या मंत्रो अनुत्तरमंत्रो समसममंत्रः सर्वदुःख प्रशमनमंत्रः सत्यममित्थत्वात् प्रज्ञापारमिताया मुक्तो मंत्रः तदयथा गते गते पारगते पारसंगते बोधिस्वाहा।